ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತವಂ ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋತಿಭಿಸ್ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತೇ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುವ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೆ ರುದ್ರ ಶಿವಾ ತನೂರ ಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಕಜೇ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇ ಬಿಭರ್ಷಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚಾ ವದಾಮಸಿ ಯಥಾ ನಶ್ಚರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯ ವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗುಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಶ್ಚಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ಸು ಮಂಗಳಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರಾ ಅಭಿತೋ ದಿಕ್ಷು ಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಏಮಹೇ ಅಸೌ ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈಲಂ ಗೋಪಾ ದೃಶನ್ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾದಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಧೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ದೇವ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ನಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪಾ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷುಧೇ ನಿಷೇರ್ಯ ಚಲ್ಯಾನಾ ಮುಖ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಧ್ಯಂ ದನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಷನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಶಂಗತಿ ಯಾತೇ ತಿರ್ಮೀ ದುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೇ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಬೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋಯ ಇಷು ದಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಗಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರ రుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాంచ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. సస్పింజరాయ త్విషీమతే పథీనాం పతయే నమో నమో. బభ్లుషాయ వ్యాదినేన్నానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో. భవస్య హేత్యై జగతాం పతయే నమో నమో. రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమః. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువందయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః. నమః సహమానాయ వ్యాధిన వ్యాధినీనాం పతయే నమో నమః. ककुभाय निषंगिणे स्तेनानां पतये नमो नमो. निषंगिण इषुधिमते तस्कराणां पतये नमो नमो. वञ्चते परिवञ्चते सायूनां पतये नमो नमो. निचेरवे परिचरायारण्यानां పతయే నమో నమ. శ్రీకావిభ్యో జిగాగుం సద్భ్యోముష్ణతాం పతయే నమో నమో. శ్రీమద్భ్యో నక్తం చరద్భ్య ప్రకృంతానాం పతయే నమో నమ. ఉష్ణేషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ. ఇషు మద్భ్యోధన్వావిభ్యశ్చ వో నమో నమ. ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్ఛద్భ్యో విసృజద్భ్యశ్చ వో నమో. నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ. ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ. స్తిష్టద్భ్యో దావద్భ్యశ్చ వో నమో నమ. సభాభ్యశ్చ సభాపతిభ్యశ్చ వో నమో నమో. అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిద్యంతేభ్యశ్చ వో నమో. నమ ఉగణాభ్యస్త్రిగుంహతేభ్యశ్చ వో నమో. నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో. వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో. రథిభ్యో రథేభ్యశ్చ వో నమో నమో. రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ. సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యోరథకారేభ్యశ్చ వో నమో నమః కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యస్వనిభ్యశ్చ వో నమో నమ శ్వభ్య శ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిజాయ చ శిపివిష్టాయ చ నమో మేఢుష్టమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమః ఆశవే చ చిరాయ చ నమః శీఘ్రయాయ చ శేభ్యాయ చ నమః ఊర్మ్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమః మధ్యమాయ చ పగల్భాయ చ నమో జఘన్యాయ చ బుధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చ వభిందతే చ నమో వర్మిణే చ వరూథినే చ నమో భిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమః వీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుదండ్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్ప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం
హర 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 ఓం నమః
సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ రుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే బధాయ చ దూరే బధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च फेण्याय च नमः सिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रपथ्याय च नमः केगुंशिलाय च शयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्धसस्पदे दरिद्रन्नीलोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्चनामवत् या ते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुं रुद्राय तवसे कपर्दिने शयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृति शयद्वीराय नमसा विधेमते यच्छं च योश्चमनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमान अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामान तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीराण्मानो रुद्रवामितो वदेर्हविष्मन्तो नमसा विधेमते आरात्ये गोघ्न उत पोरुषग्ने शयद्वीराय सुम् नमस्मे ते अस्तु रक्षा च नो अधिच देव ब्रूयदा च न शर्म यच्च द्विवर्हाः सुहिश्रुतम् गर्त सदैयुवानम् मृगन्न भीममुपहत्तुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः अवस्थिरा भगवद्यस्तनुष्वमीड्वस्तोकायतनयाय मृडया मीडुष्टम शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन्निताय कृत्यम् वसा नाचर पिनाकम् विव्रदा गहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुं हेतयोन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशान भगवः पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुं सहस्रयो जने वदन्वानि तन्मसे अस्मिन् महत्यर्णवे तनिक्षे भवा अधि नीलग्रीवाशिति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलाहिताः ये भूता नामधिपतयाभिषिकात कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पथां पथिरक्षय ऐलवृदा यव्युदः ये तीर्थानि प्रचरन्ति श्रृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसस्य दिशो रुद्रावितस्थिरे तेषां सहस्रयो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिव्येषामन्नं पातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदिचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृळयन्तु तेयं दुष्मो यश्च नो द्वेष्टितं भोजं वेददामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दनान्मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतं पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वाणवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरभिरुद्रो मा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषु सुदण्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रं नमो विद्देवमसुरन्दुवस्य अयं मे हस्तो भगवानयं मे भगवत्तरः अयं मे विश्वभेषजो जगुं शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ षञ्ज मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे पश्यश्च मे यशश्च मे भगश्च मे प्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवित्च मे ज्ञात्रं च मे सोश्च मे प्रजोश्च मे सीरं च मे लयश्च मरुतं च मे मृतं च मे जक्ष्मं च मे रामयश्च मे जीवाश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनम् ಸಾಯಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ ಓಂ ಶಾಂತಿ 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 ವರ್ಣಾಂ ಹರಿಣೀಂ ಸುವರ್ಣ ರಜತ ಸ್ರಜಾಂ ಚಂದ್ರಾಂ ಹಿರಣ್ಮಯೀಂ ಲಕ್ಷ್ಮೀಂ ಜಾತವೇದೋ ಮಹಾವಹ ತಾಂ ಮಹಾವಹ ಜಾತವೇದೋ ಲಕ್ಷ್ಮೀಮನಪಗಾಮಿನೀಂ ಯಸ್ಯಾಂ ಹಿರಣ್ಯಂ ವಿಂದೇಯಂ ಗಾಮಶ್ವಂ ಪುರುಷಾಣಹಂ ಅಶ್ವಪೂರ್ವಾರಥಮಧ್ಯಾಂ ಹಸ್ತಿರಾಲ ಪ್ರಬೋಧಿನೀ ಶ್ರಿಯಂ ದೇವೀಮುಪಕ್ವಯೇ ಶ್ರೀರ್ಮಾ ದೇವೀ ಜುಷತಾಂ ಕಾಂಸೋಸ್ಮಿತಾಂ ಹಿರಣ್ಯ ಪ್ರಾಕಾರಮಾದ್ರಾಂ ಜ್ವಲಂತೀಂ ತೃಪ್ತಾಂ ತರ್ಪಯಂತೀಂ ಪದ್ಮೇ ಸ್ಥಿತಾಂ ಪದ್ಮವರ್ಣಾಂ ತಾಮಿಹೋಪಹ್ವಯೇ ಶ್ರಿಯಂ ಚಂದ್ರಾಂ ಪ್ರಭಾಸಾಂ ಯಶಸಾ ಜ್ವಲಂತೀಂ ಶ್ರಿಯಂ ಲೋಕೇ ದೇವಜುಷ್ಟಾಮುದಾರಾಂ ತಾಂ ಪದ್ಮಿನೀಮೀಂ ಶರಣಮಹಂ ಪ್ರಪದ್ಯೆ ಅಲಕ್ಷ್ಮೀರ್ಮೇ ನಶ್ಯತಾಂ ತ್ವಾಂ ವೃಣೇ ಆದಿತ್ಯವರ್ಣೇ ತಪಸೋಧಿ ಜಾತೋ ವನಸ್ಪತಿಸ್ತವ ವೃಕ್ಷೋಥ ಬಿಲ್ವಃ ತಸ್ಯ ಫಲಾನಿ ತಪಸಾ ರುದಂತು ಮಾಯಾಂತರಾಯಾಶ್ಚ ಬಾಹ್ಯಾ ಅಲಕ್ಷ್ಮೀಃ ಉಪೈತು ಮಾಂ ದೇವಸಖಃ ಕೀರ್ತಿಶ್ಚ ವಣಿನಾ ಸಹ ಪ್ರಾದುರ್ಭೂತೋಸ್ಮಿರಾಶ್ರೇಸ್ಮಿ ಕೀರ್ತಿವೃದ್ಧಿಂ ದದಾತು ಮೇ ಕ್ಷುಪಿಪಾಸಾಮಲಾಂ ಜ್ಯೇಷ್ಠಾಮಲಕ್ಷ್ಮೀಂ ನಾಶಯಾಮ್ಯಹಂ ಅಭೂತಿಮಸಮೃದ್ಧಿಂ ಚ ಸರ್ವಾನಿರ್ಣುದ ಮೇ ಗೃಹಾತ್ ಗಂಧದ್ವಾರಾಂ ದುರಾದರ್ಶಾಂ ನಿತ್ಯಪುಷ್ಟಾಂಗರೀಷಿಣೀಂ ಈಶ್ವರೇಕುಂ ಸರ್ವಭೂತಾನಾಂ ತಾಮಿಹೋಪಹ್ವಯೇ ಶ್ರಿಯಂ ಮನಸಃ ಕಾಮಮಾಕೋತಿಂ ವಾಚಃ ಸತ್ಯಮಶೀಮಹೇ ಪಶೂನಾಂ ರೂಪಮನ್ನಸ್ಯ ಮಹಿಶ್ರೇಷಯತಾಂ ಯಶಃ ಕರ್ದಮೇನ ಪ್ರಜಾಭೂತಾ ಮಯಿ ಸಂಭವ ಕರ್ದಮ ಶ್ರಿಯಂ ವಾಸಯ ಮೇ ಕುಲೇ ಮಾತರಂ ಪದ್ಮಮಾಲಿನೀಂ ಆಪಸೃಜಂತು ಸ್ನಿಗ್ಧಾ ಹಿ ಚಿಕ್ಲೇತವತ ಮೇ ಗೃಹೇ ನಿಜ ದೇವೀಂ ಮಾತರಂ ಶ್ರಿಯಂ ವಾಸಯ ಮೇ ಕುಲೇ ಆದ್ರಾಂ ಯಷ್ಕರಿಣೀಂ ಪುಷ್ಟಿಂ ಪಿಂಗಲಾಂ ಪದ್ಮಮಾಲಿನೀಂ ಚಂದ್ರಾಂ ಹಿರಣ್ಮಯೀಂ ಲಕ್ಷ್ಮೀಂ ಜಾತವೇದೋ ಮಹಾವಹ ಆದ್ರಾಂ ಯಕ್ಕರಿಣೀಂ ಯಷ್ಟಿಂ ಸುವರ್ಣಾಂ ಹೇಮಮಾಲಿನೀಂ ಸೂರ್ಯಾಂ ಹಿರಣ್ಮಯೀಂ ಲಕ್ಷ್ಮೀಂ ಜಾತವೇದೋ ಮಹಾವಹ ತಾಂ ಮಹಾವಹ ಜಾತವೇದೋ ಲಕ್ಷ್ಮೀಮನಪಗಾಮಿನೀ ಯಸ್ಯಾಂ ಹಿರಣ್ಯಂ ಪ್ರಭೂತಂ ಗಾವೋ ದಾಸ್ಯೋಶ್ವಾನ್ ವಿಂದೇಯಂ ಪುರುಷಾಣಹಂ ಯಶುಚಿ ಪ್ರಯತೋ ಭೂತ್ವಾ ಜುಹುಯಾದಾಜ್ಯಮನ್ವಹಂ ಶ್ರಿಯಃ ಪಂಚದಶ ಚಂಚ ಶ್ರೀಕಾಮಃ ಸತತಂ ಜಪೇತ್ ಪದ್ಮಾನನೆ ಪದ್ಮ ಊರು ಪದ್ಮಾಕ್ಷಿ ಪದ್ಮ ಸಂಭವೇ ತ್ವಂ ಮಾಂ ಭಜಸ್ವ ಪದ್ಮಾಕ್ಷಿ ಯೇನ ಸೌಖ್ಯಂ ಲಭಾಮ್ಯಹಂ ಅಶ್ವದಾಯೇ ಗೋದಾಯೇ ಧನದಾಯೇ ಮಹಾಧನೇ ಧನಂ ಮೇ ಜುಷತಾಂ ದೇವೇ ಸರ್ವಕಾಮಾಶ್ಚ ದೇಹಿ ಮೇ पुत्र पौत्र धनं धान्यं हस्त्यश्वादि गवेरथं प्रजानां भवसे माता आयुष्मन्तं करोतु माम् धनमग्ने धनं वायुर्धनं सूर्यो धनं वसुः धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते वैनतेह्य सोमं पिबतु वृत्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः भवन्ति कृतपुण्यानां भक्तानां शेषो उक्तं जपेत् सदा वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्मद्विषो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधस्वा या सा पद्मासनस्ता विपुलकटितटे पद्मपत्रायताक्षे गम्भीरावत्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिघनघटिकैस्तापिता हेमकुम्भैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्गुरां श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधराम् त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियां सिद्धलक्ष्मीर्मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मी च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् बालार्ककोटिप्रतिभां त्रिनेत्रां भजेऽहमं वां जगदीश्वरे त्वां सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवे नारायणि नमोऽस्तु ते महालक्ष्मे च विद्महे विष्णुपत्ने च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति शान्ति शान्तिः
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टु वागुंसस्तनूभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः इमे वै लोका अप्सु प्रतिष्ठिताः तदेशाभ्यनूक्ता अपागुं रथमुदयगुं सन्न सूर्ये शुक्रगुं समाभृतम् अपागुं रसस्य यो रसः तं वो गृह्णाम्युत्तममिति इमे वै लोका अपागुं रसः ते मुष्मिन्नादित्ये समाभृताः जानुदग्नेमुत्त उत्तरवेदें खात्वा अपां पूरयित्वा गुल्फदग्नम् पुष्करपर्णये पुष्करदण्डये पुष्करये च सद्गुस्तेर्या तस्मिन् विहायसे अग्निम् प्रणीयोपसमाधाय ब्रह्मवादिनो वदन्ति कस्मात् प्रणीतेयमग्निश्चीयते सा प्रणीतेयमप्सुह्ययम् चीयते असौ भुवनेऽप्यनाहिताग्निरेताः तमभित एता अभीष्टका उपदधाते अग्निहोत्रे दर्शपूर्णमासयोः पशुबन्धे चातुर्भास्येषु अथो आहुः सर्वेषु यज्ञक्रतुष्विते एतद्धस्म वा आहुषण्डिलाः कमग्निम् चिनुते सत्रियमग्निम् चिन्वानः संवत्सरम् प्रत्यक्षेण कमग्निम् चिनुते सावित्रमग्निम् चिन्वानः अमुमादित्यम् प्रत्यक्षेण कमग्निम् चिनुते नाचिकेतमग्निम् चिन्वानः प्राणान् प्रत्यक्षेण कमग्निम् चिनुते चातुर्होत्रियमग्निम् चिन्वानः ब्रह्म प्रत्यक्षेण कमग्निम् चिनुते वैश्वसृजमग्निम् चिन्वानः शरीरम् प्रत्यक्षेण कमग्निम् चिनुते उपानुवाक्यमाशुमग्निम् चिन्वानः इमान् लोकान् प्रत्यक्षेण कमग्निम् चिनुते इममारुणकेतुकमग्निम् चिन्वान इति य एवासौ इतश्चामुतश्चाव्यतिपाते तमिति योऽग्नेर्मिथुया वेद मिथुनवान् भवति आपो वा अग्नेर्मिथुया मिथुनवान् भवति य एवं वेद आपो वा इदमासंसलिलभेव स प्रजापतिरेकः पुष्करपर्णे समभवत् तस्यान्तर्मनसिकामः समवर्तत इदगुम् सृजेयमिति तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति तत्कर्मणा करोति तदेशाभ्यनूक्ता कामस्तदग्रे समवर्तताधि मनसोरेध प्रथमम् यदासीत् सतो बन्धुमजति निरविन्दन् हृदि प्रतीश्या कवयो मनीषेति उपैनम् तदुपनमति यत्कामो भवति य एवम् वेद सतपोतप्यता सतपस्तप्त्वा शरीरमधूनुत तस्य यन्मागुम् समासेत् ततो ऋणा केतवो वातरशना ऋषय उदतिष्ठन् येन गाः ते वैखानसाः ये बालाः ते बालखिल्याः यो रसः सोपाम् अन्तरतकूर्मम् भूतगुम् सर्पन्तम् तमब्रवीत् मम वै त्वम् गमागुंसा समभूत् नेत्यब्रवीत् पूर्वमेवाहमिहासमिते तत्पुरुषस्य पुरुषत्वम् स सहस्रशीरुषा पुरुषः सहस्राक्ष सहस्रपाद् भूत्वोदतिष्ठत् तमब्रवीत् त्वम् वै पूर्वगुम् समभूः त्वमिदम् पूर्वः कुरुष्वेते स इद आदायापः अञ्जलिना पुरस्तादुपादधात् एवाख्ये वेते तत आदित्य उदतिष्ठत् सा प्राचेदिक अधारुणः केतुर्दक्षिणत उपादधात् एवाख्यग्रहिते ततो वा अग्निरुदतिष्ठत् सा दक्षिणादिक अधारुणः केतु पश्चादुपादधात् एवाहि वायो इति ततो वायुरुदतिष्ठत् सा प्रतिचेदिक अधारुणः केतुरुत्तरत उपादधात् एवाहीन्द्रेते ततो वा इन्द्र उदतिष्ठत् सोदेचेदिक अधारुणः केतुर्मध्य उपादधात् एवाहि पूषन्निते ततो वै पूषोदतिष्ठत् सेयन्दिक अधारुणः केतुरुपरिष्ठादुपादधात् एवाहि देवाहिते ततो देवमनुष्यापितरः गन्धर्वाप्सरसच्चोदतिष्ठन् सोऽर्ध्वादिक या विपृशो विपरापतन् ताभ्योऽसुरा रक्षागुंसि पिशाचाश्चोदतिष्ठन् तस्मात्ते पराभवन् विप्रुद्भ्यो हि ते समभवन् तदेशाभ्यनूक्ता आपोहयद्बृहते गर्भमायन्न दक्षन्दधारा जनयन्ते स्वयम्भुम् तत इमेऽद्य सृज्यन्त सर्गाः अद्भ्यो वा इदगुम् समभूत् तस्मादिदगुम् सर्वम् ब्रह्म स्वयम् विते तस्मादिदगुम् सर्वगुम् शिथिलमिवा ध्रुवमिवा भवत् प्रजापतिर्वावतत् आत्मनात्मानम् विधाय तदेवानुप्राविशत् तदेशाभ्यनूक्ता विधाय लोकान् विधाय भूतानि विधाय सर्वा प्रदिशो दिशश्च प्रजापतिप्रथमजारुतस्य आत्मनात्मानमभिसंविवेशेते सर्वमेवेदमाप्त्वा सर्वमवरुद्ध तदेवानुप्रविशति य एवम् वेद भद्रम् कर्णे विशृणुयामदेवाः भद्रम् पश्ये भाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यशेमदेवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठदेवीः स्वस्ति नो बृहस्पतिर्दधातु ओ शान्ति 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 स्वस्ति पारयन्तम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति